इयम् आकाशवाणी सम्प्रति वार्ता श्रूयन्ताम् प्रवाचकः दिव्यानन्द झा। श्री प्रणव मुखर्जी अद्य देशस्य नूतन राष्ट्रपतित्वेन शपथम् अग्रहीत्। तेन भणितं यत् वास्तविको विकासः सः यदा देशस्य निर्धनाः अपि आत्मानम् उन्नत भारतस्य अंगरूपेण अनुभवेयुः, अपि च यदा आधुनिक भारतस्य शब्दकोशात् निर्धनता शब्दः पूर्णतो विलुप्तः स्यात्। तेनेतदपि प्रोक्तं यत् भ्रष्टाचारः देशस्य विकासपथि परमबाधको विद्यते, देशहिताय अस्योन्मूलनं परमावश्यकम्। असमराज्ये हिंसाग्रस्तेष् कोकराझार चिरांग धुबरी जनपदेष् बोडोलैण्डस्य प्रादेशिक क्षेत्रेष् च सुरक्षा सम्बद्धं सैन्याभियानं प्रवर्धितम्। अपि च पाकिस्तानस्य उच्चतम न्यायालयेन प्रधानमन्त्रिणः राजा परवेज अशरफस्य सौविध्यार्थं राष्ट्रपतिम् आसिफ अली जरदारीं विरुध्य उत्कोच प्रकरणं पुनः प्रकाशयितुं स्विट्जरलैण्डस्य अधिकारिभिः सम्पर्कं विधातुं समयसीमा अगस्तमासस्य अष्टम दिनांक पर्यन्ता वर्धिता। श्री प्रणव मुखर्जी अद्य देशस्य त्रयोदश राष्ट्रपतित्वेन शपथम् अग्रहीत्। शपथग्रहण समारोहोऽयं संसद्भवनस्य केन्द्रीय कक्षे सम्पन्नम्। शपथग्रहणानन्तरं तस्मै एकविंशतेः शतघ्नीनां निनादाभिवादनम् अपि प्रदत्तम्। नूतन राष्ट्रपतिना प्रणव मुखर्जिना स्वकीये अभिभाषणे भणितं यत् वास्तविको विकासः सः यदा देशस्य निर्धनाः अपि आत्मानम् उन्नत भारतस्य अंगरूपेण अनुभवेयुः, अपि च यदा आधुनिक भारतस्य शब्दकोशात् निर्धनता शब्दः पूर्णतो विलुप्तः स्यात्। तेनैतदपि प्रोक्तं यत् भ्रष्टाचारः देशस्य विकासपथि परमबाधको विद्यते, देशहिताय अस्योन्मूलनं परमावश्यकम्। श्रीमता मुखर्जिना प्रोक्तं यत् आतंकवादः चतुर्थ विश्वयुद्धरूपेण विश्वस्य समक्षं विद्यते, एनम् अखिलम् अपि विश्वं सम्मुखीकरोति। राष्ट्रपति प्रावोचत् यत् देशेन कृष्युद्योग सामाजिक क्षेत्रेष् महत्यः उपलब्धयः अधिगताः सन्ति, एताश्च उपलब्धयः आगामिष् दशकेष् उत्तरोत्तरं वर्धिष्यते इति आशास्यते। अत्र शपथग्रहण समारोहावसरे उपराष्ट्रपतिः मोहम्मद हामिद अंसारी, लोकसभाध्यक्षा मीरा कुमारः, प्रधानमन्त्री डॉ मनमोहन सिंहः, पूर्व राष्ट्रपतिः प्रतिभा देवी सिंह पाटिलश्च समुपस्थिताः आसन्। अन्येष् प्रमुख नेतृष् संयुक्त प्रगतिशील संयुतेः अध्यक्षा सोनिया गांधी, भाजपादलस्य वरिष्ठो नेता लालकृष्ण आडवाणी, केन्द्रीय मन्त्रिणः, विपक्ष नेतारः, मुख्यमन्त्रिणः, सांसदाः, राज्यानां राज्यपालाश्च अन्यतमाः आसन्। असमराज्ये हिंसाग्रस्तेष् कोकराझार चिरांग धुबरी जनपदेष् बोडोलैण्डस्य प्रादेशिक क्षेत्रेष् च सुरक्षा सम्बद्धं सैन्याभियानं प्रवर्धितम्। तेजपुरे सेना जनसम्पर्काधिकारिणा प्रोक्तं यत् विधिव्यवस्थां सन्धारयित्ं त्रयोदश सैन्यगुल्माः प्रेषिताः सन्ति। चिरांग जनपदे अद्य भूयोऽपि त्रयः शवाः अधिगताः सन्ति। आहत्य इदानीं यावत् मृतकानां संख्या एधित्वा 35 संवृत्तास्ति। तत्रान्तरे कोकराझार धुबरी जनपदयोः दृष्टाः उपद्रविणः तत्क्षणमेव हन्तुम् आदिष्टाः सन्ति। अपि च जनपदयोः एतयोः अनिश्चितकालिकी निषेधाज्ञा प्रवर्तितास्ति। कश्मीरोपत्यकायाम् अद्य प्रातः भूकम्पनस्य अतीव्र प्रकम्पनानि अनुभूतानि, अनेन कीदृक् विधायाः अपि क्षतेः सूचना नाधिगतास्ति। पाकिस्तानस्य उच्चतम न्यायालयेन प्रधानमन्त्रिणः राजा परवेज अशरफस्य सौविध्यार्थं राष्ट्रपतिम् आसिफ अली जरदारीं विरुध्य उत्कोच प्रकरणं पुनः प्रकाशयित्ं स्विट्जरलैण्डस्य अधिकारिभिः सम्पर्कं विधातुं समयसीमा अगस्तमासस्य अष्टम दिनांक पर्यन्तं वर्धिता। न्यायालयेन इतः प्रागपि राष्ट्रपतिं विरुध्य भ्रष्टाचार प्रकरणं पुनः प्रकाशयित्ं प्रधानमन्त्रिणे अद्य पर्यन्तं समयः प्रदत्त आसीत् इति वार्ताः।